इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिनशर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना राज्यसभायां राष्ट्रपतेः अभिभाषणमालक्ष्य धन्यवाद प्रस्तावस्य उत्तरं प्रदत्तम्। सः अवदत् यत् संविधानं सर्वकाराय निर्देशं दातुं दीपस्तम्भमिव अस्ति। उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः अद्य हाथरस सर्वकारी चिकित्सालये दुरापन्नायां दुर्घटनायां पीडितैः सह मेलनं कृतवान्। विदेशमंत्री डॉ एस जयशंकरः अद्य कजाकस्थान देशस्य अस्ताना नगरे स्वीय समकक्षेण रूसदेशस्य विदेशमंत्रिणा सर्गेय लावरोव इत्यनेन सह वर्तमानकाले युद्धक्षेत्रीय स्थितीनां सहैव भारतीय नागरिकाणां विषये महतीं चिन्तां प्रकटितवान्। केन्द्रीय मंत्री अश्विनी वैष्णवः अद्य वैश्विक भारत एआई शिखर सम्मेलनस्य उद्घाटनम् अकरोत्। सहैव समुद्घोषयत् यत् अनतिचिरमेव सर्वकारेण एआई अभियानं विमोचयिष्यते। अथ वार्ताः विशदीकृत्य। प्रधानमंत्री नरेन्द्र मोदी अद्य कांग्रेस दलम् आक्षिप्तवान् यत् एतद्दलं संविधान विरोधं दलम् अस्ति। राज्यसभायां संसदः संयुक्त सम्मेलने राष्ट्रपतिनः द्रौपदी मुर्मू वर्यायाः अभिभाषणस्य धन्यवाद प्रस्तावस्य प्रत्युत्तरे असौ आरोपितवान् यत् कांग्रेस पक्षस्य मनोवृत्तिः अनुसूचित जातिम् अनुसूचित जनजातिम् अन्य वंचित वर्गान् च विरोधं करोति इति। विपक्षदलं पूर्व राष्ट्रपतेः रामनाथ कोविन्दस्य अपमानम् अकरोत् इत्यपि आरोपितवान्। अपि च राष्ट्रपति द्रौपदी मुर्मू वर्यायाः अपमानाय अपि विपक्षिदलेन सर्वविध प्रयासः क्रियते इति। श्रीमोदी अग्रे अवदत् यत् संविधानं न केवलं लेखानां संग्रहणमस्ति अपितु तस्य भावाः शब्दाः च सर्वकारस्य कृते बहुमूल्ययुताः सन्ति। सः अवदत् यत् संविधानं सर्वकाराय निर्देशं दातुं दीपस्तम्भमिव अस्ति। बाबासाहेब भीमराव अम्बेडकर वर्यस्य योगदानस्य प्रशंसां कुर्वन् प्रधानमन्त्री अवदत् यत् संविधानस्य 75 वर्षाणि आगच्छन्तः सन्ति। तृतीये कार्यकाले एनडीए सर्वकारस्य दूरदृष्टेः विषये श्रीमोदी अवदत् यत् दारिद्र्यं विरुध्य युद्धं सर्वकारस्य प्रमुखकार्यं भविष्यति तथा च देशः निर्धनात् विजयी भविष्यति। यदा प्रधानमन्त्रिणः वक्तव्यं प्रचलन् आसीत् तदा कांग्रेस डीएमके टीएमसी आम आदमी पार्टी आरजेडी इत्यादीनि विपक्षदलानि कोलाहलं कृत्वा सदनमध्ये प्रविष्टवन्तः। अध्यक्षः जगदीप धनखड़ः तान् स्वस्थानानि पुनः ग्रहीतुं पृष्टवान्। पश्चात् विपक्षदलानि सभातः बहिर्गतानि। उत्तरप्रदेशस्य हाथरसनगरे ह्यः दुखद घटनायां मृतानां जनानां कृते सभया श्रद्धाञ्जलिः प्रदत्ता। अध्यक्षः जगदीप धनखड़ः अवदत् यत् अस्यां घटनायां प्राणहानिः क्षतयः च दुर्भाग्यपूर्णानि सन्ति। सः अवदत् यत् व्रणितेभ्यः चिकित्सा साहाय्यं प्रदातुं सर्वे आवश्यकोपायाः विधीयन्ते। उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः अद्य हाथरस सर्वकारी चिकित्सालये दुरापन्नायां दुर्घटनायां पीडितैः सह मेलनं कृत्वा मुख्यमंत्रिभिः मुख्यसचिवेन च मनोजकुमार सिंहेन सह समीक्षोपवेशनं कृतवान्। मुख्यमंत्री घटनास्थलम् अपि गतवान्। अस्मिन् घटनायां ये 21,100 जनाः मृत्युमुपगताः ते उत्तरप्रदेशस्य हरियाणायाः मध्यप्रदेशस्य राजस्थानस्य च निवासिनः आसन्। 21,100 मृतकेष् 6 अन्यराज्याणाम् आसन्। 31 व्रणितानाम् उपचारः सम्प्रति चिकित्सालये चलति। प्रायः सर्वे अपि संकटात् बहिः सन्ति। आकाशवाणी संवाददात्रानुसारं मुख्यमंत्री योगी आदित्यनाथः अवदत् यत् राज्यसर्वकारेण एडीजी आगरायाः नेतृत्वे विशिष्टान्वेषणदलस्य गठनं कृतम् अस्ति। विदेशमंत्री डॉ एस जयशंकरः अद्य कजाकस्थान देशस्य अस्ताना नगरे स्वीय समकक्षेण रूसदेशस्य विदेशमंत्रिणा सर्गेय लावरोव इत्यनेन सह वर्तमानकाले युद्धक्षेत्रे स्थितीनां भारतीय नागरिकाणां विषये महतीं चिन्तां प्रकटितवान्। डॉ जयशंकरः तेषां सुरक्षितं शीघ्रं च पुनरागमनार्थम् आग्रहमपि अकरोत्। उभौ मन्त्रिणौ शंघाई सहयोग शिखर सम्मेलनेतर भारत रूसयोः द्वैपाक्षिक सहभागित्व विषये समकालीन विषयेषु च विस्तृतं वार्तालापम् अकुरुताम्। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। इलेक्ट्रॉनिक्स एवं सूचना प्रौद्योगिक मंत्री अश्विनी वैष्णवः प्रोक्तवान् यत् कृत्रिम बुद्धिमत्तायाः क्षमताम् उपयोक्तुं भारतस्य दृष्टिकोणोद्देश्यं प्रौद्योगिक्याः लोकतंत्रीकरणम् इत्यस्ति। अद्य नवदिल्ल्यां वैश्विक भारत एआई शिखर सम्मेलनं समुद्घाटयन् श्रीवैष्णवः सबलं प्रतिपादितवान् यत् प्रौद्योगिकी समेषां कृते सुलभा स्यात्। तेन प्रोक्तं यत् सर्वकारेण अनतिचिरमेव भारत एआई अभियानं विमोचयिष्यते। इदम् अभियानं 10,000 कोटि रूप्यात्मकं भविष्यति। तेनोदीरितं यत् समस्यानां समाधाने एआई एकं बृहत्तमं उपकरणं भवितुमर्हति। द्विदिवसात्मके अस्मिन् सम्मेलने एआई अनुप्रयोगः शासन सम्बद्ध पक्षाः समेत्य विविध विषयाणामुपरि चर्चा भविष्यति। भाजपा नेतारः राहुल गांधिनः समुदाय विशेषस्योपरि टिप्पणीमालक्ष्य लोकसभायां विरोधं प्रकटितवन्तः। वार्ताहरैः सह संवादे भाजपा सांसदः बांसुरी स्वराजः आरोपितवती यत् राहुल गांधिना तुष्टीकरणस्य राजनीतिं प्रोत्साहयितुं एतादृशः आलापः कृतः। अपरत्र श्रीगांधिना आरोपाणां निराकरणं कुर्वता कथितं यत् तस्य टिप्पण्यः भाजपायाः कृते आसन् न तु कस्यचित् समुदाय विशेषस्य कृते। भारतस्य प्रथमं सौराभियानं आदित्य L1 इति अन्तरिक्षयानं सूर्यपृथिव्योः L1 इति केन्द्रं परितः प्रथमां प्रभामण्डलकक्षां सम्पन्नं कृतवत्। भारतीयान्तरिक्षानुसन्धानसंघटनेन इसरो इत्यनेन ख्यापितं यत् ह्यः अभियानेन द्वितीय प्रभामण्डल कक्षायां निर्विघ्नतया स्थानं सुनिश्चीकृतम्। आदित्य L1 अभियानं यत् लैग्रेंजियन बिन्दु L1 इत्यत्र सम्प्रेषितं भारतीय सौराभियानमस्ति, तत् गतवर्षस्य सितम्बर मासस्य द्वितीय दिने प्रक्षेपितम्। अस्मिन् वर्षे जनवरी मासस्य 6 दिनांके निर्धारित प्रभामण्डल कक्षायां प्रविष्टम्। मणिपुरे अत्यधिक वृष्ट्या आकस्मिक जलाप्लावेन च तत्रस्थेषु मण्डलेषु विनाशः उत्पन्नः अस्ति, अपि च राज्य सर्वकारेण प्रभावितानां जनानां कृते उद्धार कार्याणि आरब्धानि। आगामि दिनद्वये राज्ये प्रचण्ड वृष्टिः भविष्यति इति विभागेन पूर्वानुमानितः अस्ति। मणिपुरे गतसोमवासरात् प्रचण्ड वृष्टिः जायमाना वर्तते। अधुना नद्यः संकटस्तरात् उपरि प्रवहन्ति। इम्फालस्य ऋतुविभागेन उक्तं यत् ह्यः मणिपुरस्य 5 मण्डलेषु वर्षा अभवत्, अपि च विष्णुपुरमण्डले 85 मिलीलीटर मितवृष्ट्या सर्वाधिकवृष्टियुक्तं मण्डलम् अभवत्। इम्फाल उपत्यकायां प्रवहन्ति नद्यः इदानीं इम्फाल नगरस्य निम्नक्षेत्रं प्रभावयन्ति। राज्यसर्वकारेण अद्य सर्वासां प्रशासनिकसंस्थानां सार्वजनिकावकाशस्य घोषणा कृता। श्वः यावत् विद्यालयाः पिहिताः भविष्यन्ति। उद्धार पुनर्वास प्रयासान् कर्तुं प्रचण्ड वृष्ट्या जलप्रलयेन भूस्खलनेन च प्रभावितानां जनानां आवश्यकतां सम्पूरयितुं अहर्निशं नियन्त्रणकक्षं स्थापितं वर्तते। नदीघट्टानां कृते जीर्णोद्धार कार्यं सम्प्रति प्रचलति। मध्यप्रदेशस्य इन्दौरनगरस्थिते श्रीयुगपुरुषधाम बौद्धिक विकास केन्द्रे खाद्य विषाक्ततायाः आशंकायाः घटनायां 5 बालकाः मृत्युम् उपगताः। इन्दौरस्य मण्डलाधिकारी आशीष सिंहः वार्ताहरान् सूचितवान् यत् 38 यावत् बालकाः चिकित्सकीय निरीक्षणे उपचाररताः सन्ति। आगामिषु 48 होरासु वयम् आश्रमे सूक्ष्मतया निरीक्षणं करिष्यामः। यदि कस्मिन्नपि बालके किमपि लक्षणं दृश्यते तर्हि तस्मै तत्क्षणमेव चिकित्सालये नेष्यामः इति सः अवदत्। अमेरिकी राष्ट्रपतिना जो बाइडनेन ह्यः स्वीकृतं यत् राष्ट्रपतिपदाय वादविवादे तस्य प्रदर्शनं सर्वोत्तमं नासीत्। व्हाइट हाउस इत्यस्य वार्ता सचिवया कैरिन जीन पियरे इत्यनया स्वकीयस्य दैनिक वार्ताहर सम्मेलने वार्ताहराः प्रोक्तं यत् राष्ट्रपतेः वादविवादः सम्यक् नाभवत्, परन्तु सा प्रतिपादितवती यत् सः कार्याणि कथं सम्पादनीयम् इति सम्यक्तया जानाति इति वार्ताः।